ओम अथ श्री देवी भुजंग स्तोत्रम श्री अथ देवी भुजंग स्तोत्रम विरिंचा दिवी पंच विरलोक पालही समूढ़े महानंद पीठी निषणम धनुर्बाण पाशांकुश प्रोत हस्तम महस्त्रैपुरं शङ्कराद्वैतमव्या यदन्नादिभिः पञ्चभिकोशजालैः शिरः पाच पोचात्मकैरन्तरन्तः निगूढे महायोगपीठे निषणम् पुरोरीरथान्तः पुरं नौमि नित्यं विरिञ्चादिरूपैः प्रपञ्चे विरेत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेष तदा मानमातृप्रमेयातिरिक्तं परानन्दमीडे भवानी त्वदीयं विनोदाय चैतन्यमेकं विभाज्य द्विधा देवि जीवः शिवश्रेति नाम्ना शिवाश्चापि जीवा त्वमापादयन्ति पुनर्जीवमेनं शिवं वा करोषि समाकुञ्च मूलं हृदि न्यास्य वायुं मनोभ्रूपिलं प्रापयित्वा निवृत्ता तत सच्चिदानन्दरूपे पदे ते भवन्त्यम्ब जीवाः शिवत्वेन केचित् शरीरेति कष्टेरिपो पुत्रवर्गे सदा भीति मूले कलत्रे धनिव न कश्चिद्विराज्यत्यहो देविचित्रम् कथं त्वत्कटाक्षं विना तत्त्वबोध शरीरे धने पात्यवर्गे कलात्रे विराक्तस्य सद्देशिका दीष्टबुद्धे यदा कस्मिकं ज्योतिरानन्दरूपम् समाधौ पवीता त्वमस्याम्ब सत्यं मृषाण्यो मृषाण्यः परो मे श्रमीणम् परः प्राकृतं च परो बुद्धिमात्रम् प्रपञ्चं मिमीते मुनीनां गणोऽयम् तदितत्त्वमेवेति न त्वां जहीमः निवृत्तिः प्रतिष्ठा च विद्या च शान्तिस्तथा शान्त्यतीतेति पञ्चीकृताभिः कलाभिः परे पञ्चविंशात्मिकाभिः त्वमेकैव सेव्या शिवाभिन्नरूप अगादेत्र संसार पंके निमग्नम् कलत्रादिभारेण खिन्नम् नितान्तम् महामोह पाशौघ बद्धान् चिरान् माम् समुद्धर्तुमम्ब त्वमेकैव शक्त समारभ्य मूलं गतो ब्रह्मचक्रम् भवद्दिव्यचक्रे स्वरिधाम भज महासिद्धि संघात कल्पद्रुमाभा नवाप्याम्बनादा नुपास्ते च योगी गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या तथा योगिनी राशि पीठैरभिन्नम् महाकालमात्मानमामृश्य लोकम् विधत्सि कृतिं वा स्थितिं वा महिषि लशत्तारहार मति स्वच्छचेलां वहन्तीं करि पुस्तकं चाक्षमालां शरच्चन्द्रकोटि प्रभावासुरां पां सकृद्भावयं भारतीवल्लभस्य समुद्यात् सहस्रार्कबिम्बाभवात्रान् स्वभासैव सिन्दूरिता चाण्डकोटि धनुर्बाणपाशां कुशान्धारयन्तीं स्मरन्तः स्मरं वापि सम्मोहयेयुः मणिस्तूयताटङ्क शोणाश्य बिम्बां हरित्पट्टवस्त्रां त्वगुल्लासिभूषां हृदाभावयस्ताप्त हेमा प्रभा त्वं श्रियो नाशयत्याम्ब चाञ्चल्यभवं महामन्त्र राजान्तबीजं पराख्यं स्वतो न्यास्तबिन्दुं स्वयं न्यास्तहार्दं भवद्वात्र वक्षोजगुह्याभिधानं स्वरूपं सकृद्भावये स त्वमेव तथा निविकल्पेषु निर्वीण चित्तास्तदेकं समाधाय बिन्दुत्रयं ते परानन्दसन्धान सिन्धौ निमग्ना पुनर्गर्भरन्ध्रं न पश्यन्ति धीरः त्वदुन्मेष लीलानुबन्धाधिकारान् विरिञ्चाधिकास्त्वाद् गुणाम्भोधि बिन्दून् भजन्तास्तिति शान्ति संसार सिन्धुं शिवितावकीनां सुसंभावनीयं कदा वा भवत्पाद पोतेन तूर्णं भवाम्भोधिमुक्तिर्य पूर्णान्तरङ्ग निमज्जान्तमेनं दुराशा विशब्दौ समालोक्य लोकं कथं पार्युदासि कदा वारिषि काणि साम्यं भजेयुः कदा वा न शत्रोर्न मित्रं भवानि कदा वा दुराशा विसूचि विलोपः कदा वा मनो मे समूलं विनाशेत् नमो वाक्माशाश महे देवि योष्मात् पदाम्भोज योगमाय तिगमाय गौरी विरिञ्चादिवास्वत् किरीट प्रतोली प्रदीपाय मान प्रभापास्वराय कची चन्द्ररेखं कुचितारहारं करी स्वादु चापं शरी षट्पदोघं स्मरामि स्मरारि रभिप्रायमेकं मदाकूर्णनेत्रं मदीयं निदानं शरीष्वेव नासा धनुष्वेव जीवा जपपाटले लोचने ते स्वरूपी त्वगीसा भवचान्द्रखण्डे स्रवो मे गुणेति मनोवृत्तिरम्ब त्वयि स्यात् जगत्कर्मधीरान् वचोधूतकीरान् कुचन्यस्तहारान् कृपा सिन्धुपुरान् भवाम्बोधिपारान् महापापदूरान् भजे वेदसारान् शिव प्रेमदारान् सुधा सिन्धुसारे चिदानन्दनीरे समुत्फुल्लनीपे सुरत्रान्तरीपे मणिव्यूहसाले स्थिते हैमशाले मनोजारिवा मे निषाणां मनो मे त्रिगन्ते विलोला सुगन्धे सुमाला प्रपञ्चेन्द्रजाल विपासिन्धुकुल मुनिस्वान्तशाल नमलोकपाल हृदि प्रेमलोला మృత స్వాదులీల జగజ్జాలమిత త్వయేవాంబశ్రీష్టం త్వమేవాదియాసేంద్రియైరార్థజాలం త్వమేకైవ కర్త్రీ త్వమేకైవ భోక్త్రీ నమే పుణ్య పాపే నమే బంధ మోక్షో ఇతి ప్రేమ భారేణ కించిన్మయోక్తం న బుద్ధ్వైవ తత్వం మదీయం త్వదీయం వినోదాయ బాలస్య మూర్ఖ్యం హి మాతస్ తదితర్ ప్రలాప స్తుతిం మే గృహాణ. ఇతి శ్రీమద్ పరమహంస పరివ్రాజకాచార్యస్య శ్రీ గోవింద భగవత పూజ్యపాద శిష్యస్య శ్రీమద్ శంకర భగవత కృతౌ దేవీ భుజంగ స్తోత్రం సంపూర్ణం.